ततश्च किङ्करान् हत्वा हनूमान् ध्यानमास्थितः वनम् भग्नम् मया चैत्य प्रासादो न विनाशितः तस्मात् प्रासादमप्येवम् इमम् विध्वंसयाम्यहम् इति सञ्चिन्त्य मनसा हनूमान् दर्शयन् बलम् चैत्य प्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम् आरुरोह हरिश्रेष्ठः हनूमान् मारुतात्मजः आरुह्य गिरिसङ्कासम् प्रासादम् हरियोधवः बभूष सुमहातेजाः प्रतिसौर्य इवोदितः सम्प्रदिश्य चतुर्धर्षम् चैत्य प्रासादमुत्तमम् हनूमान् प्रज्वलन् लक्ष्म्या पार्यात्रोपमो भवति स भूत्वा सुमहाकायः प्रभावान् मारुतात्मजः धृष्टमास्फोटयामास लङ्काम् शब्देन पूरयन् तस्या स्फोटितशब्देन महता श्रोत्रघातिना पेतुर्विहङ्गमास्तत्र चैत्यपालाश्च मोहिताः अस्त्रविजयताम् रामः लक्ष्मणश्च महाबलः राजा जयति सुग्रीवः राघवेणाभिपालितः दासोऽहम् कौसलेन्द्रस्य रामस्याक्लिष्टकर्मणः हनूमान् शत्रुसैन्यानाम् निहन्ता मारुतात्मजः न रावणसहस्रम् मे युद्धे प्रतिबलम् भवेत् शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः अर्दयित्वा पुरीम् लङ्काम् अभिवाहद्य च मैथिलीम् समृद्धार्थो गमिष्यामि मिषताम् सर्वरक्षसाम् एवमुक्ता महाबाहुः चैत्यस्थो हरियूथपः ननादभीमनिर्घ्रादः रक्षसाम् जनयन् भयम् तेन शब्देन महता चैत्यपालाशतम् ययुः गृहीत्वा विविधानस्त्रान् प्रासान् खड्गान् परश्वधान् विसृजन्तो महाकायाः मारुतिम् पर्यवारयन् ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः आजघ्रुर्वानरश्रेष्ठम् बाणैश्चादित्यसन्निभैः आवर्तैव गङ्गायाः तोयस्य विपुलो महान् परिक्षिप्य हरिश्रेष्ठम् सबभो रक्षसाङ्गणः ततो वातात्मजः क्रुद्धः भीमरूपम् समास्थितः प्रासादस्य महान्तस्य स्तम्भम् हेमपरिष्कृतम् उत्पाटयित्वा वेगेन हनूमान् पवनात्मजः ततस्तम् भ्रामयामास शतधारम् महाबलः तत्र चाग्निः समभवति प्रासादश्चाप्यदह्यत दह्यमानम् ततो दृष्ट्वा प्रासादम् हरियोधवः सराक्षरशतम् हत्वा वज्रेणेन्द्र इवासुरान् अन्तरिक्षे स्थितः श्रीमान् इदम् वचनमब्रवीत् मादृशानाम् सहस्राणि विसृष्टानि महात्मनाम् बलिनाम् वानरेन्द्राणाम् सुग्रीववशवर्तिनाम् अटन्ति वसुधाम् कृष्णाम् मयमन्ये च वानराः दशनागबलाः केचित् केचिद्दशगुणोत्तराः केचिन्नागसहस्रस्य बभूवस्तुल्यविक्रमाः सन्ति चौघबलाः केचित् केचिद्वायुबलोपमाः अप्रमेयबलाश्चान्ये तत्रासन् हरियोधपाः ईदृग्विधैस्तु हरिभिः भृतोदन्तरखायुधैः सतैः शतसहस्रैश्च कोटिभिरहितैरपि आगमिष्यति सुग्रीवः सर्वेषाम् वो निषूदनः नेयमस्ति पुरीलङ्का न यूयम् न च रावणः यस्मादिक्ष्वाकुनाथेन बद्धम् वैरम् महात्मना इत्याशे श्रीमद् रामायणे वाल्मीकी आदिकाव्ये चतुर्विंशः शास्त्रिकायाम् संहितायाम् सुन्दरकाण्डे त्रिचत्वारिंशः सर्गः।